वैश्वानराजमेढुषे सजोषा कथादा शेमाग्नजे बृहद्भाः अनो नेन बृहता बक्षथेनोपस्तभाजदुपमिन्नरोधाः मा निन्दतय इमाम् मह्यम् भ्रातिम् देवो ददो मर्त्याजस्वधावान् पाका जगृत्सो अमृतो विचेदा वैश्वानरो नृतमो जह्वो अग्निः सामद्विबर्हामहि तिक्बभ्रष्टिः सहस्ररेता वृषभस्तु विष्मान् पदन्नकोरपगोढ्वम् विविद्वानग्निरमह्यम् प्रेतुवोचन्मनीषाम् प्रताम् अग्निर्बभसत्तिग्भजम् भस्तपिष्ठेन शोचिषाजस्सुराधाः प्रजे मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणी अभ्रातरो न यो षडोऽव्यन्तः पतिरिपो न जनयो दुरेवाः पापासः सन्तो अनृता असत्या इदम् पदमजनता गभीरम् इदम् मे अग्ने कियते पापकामिनते गुरुम् भारन्नमन्म बृहद्दधाथ दृशता गभीरम् यह्वम् भ्रष्टम् व्रजसा सप्तधातो तमिन्वे एव समना समानमभिकृत्वा पुनति धीतिरश्याः सस्य चर्मन्नधिचारु प्रश्नेरग्रे रूप आरोपितम् जबारो प्रवाच्यम् वचसः किम् मे अस्य गुहाहितमुपनिणिग्वदन्ति यदुसृजाणामपवारिभव्रन् पाति प्रियम् रूपो अग्रम् पदम् वेः इदमुत्यन्महि महामने एकम् यदुसृजा स च तपोर्व्यङ्गौः ऋतस्य पदे अधिदेत्यानम् गुहारघुश्यद्रघुजद्विवेद अधद्युतानः पित्रोऽस्य चासामनुत गुह्यम् चारु प्रश्नेः मातुष्पदे परमे अन्तिषद्गोर्वृष्णः शोचिषः प्रजतस्य जिह्वा ऋतम् वोचे नमसा पृच्छमानस्तभाषसा जातवेदो यदीदम् त्वमस्य क्षयसि यद्ध विश्वम् दिवि यदुद्रविणम् यत्पृथिव्याम् किन्नो अस्य द्रविणम् कद्धरत्नम् विनो वोचो जातवेदश्चिकित्वान् गुहाध्वनः परमम् यन्नो अस्य रेकुपदन्न निदाना अगन्म कामर्यादा वयो न कद्धवा ममच्छा गमेम रघवो न वाजम् कदा नो देवीरमृतस्य पत्नीः सोरो वर्णेन ततनन्नुशासाः अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुना दृपासाः अधाते अग्ने किमिहावदन्त्यनायुधा स आसता सजन्ताम् अस्य श्रिजे समिधानस्य वृष्णावसोरनीकम् दम आरुरोच ऋषद्वसा नः सुदृशीकरूपः क्षितिर्न राजा पुरुवारो अद्यौत